एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते वर्तमान सर्वकारेण देशजनतयोर हिताय कार्याणाम् प्रारभणम् अनु भ्रष्टाः भयभीताः सन्ति। नुवाकोट जनपदस्य लाकुरी भञ्ज्याङ स्थाने पञ्चकन्या ग्रामपालिकायाः प्राशासनिक भवनम् ह्यः उद्घाटयन् प्रधानमन्त्री प्रचण्डः अवोचत् वर्तमान सर्वकारेण देशजनतयोर हितम् केन्द्रे निधाय कार्याणाम् प्रारभणम् अनु भ्रष्टाः भीताः एवि विरोधाय विरोधश्च भीतो वर्तते। विकासाय राजनैतिक पूर्वाग्रहो न धर्तव्येति चर्चयन् प्रधानमन्त्री प्रचण्डः अकथयत् विकासाय राजनैतिक सहमतेः राष्ट्रिय संकल्पस्य च आवश्यकता वर्तते। प्रधानमन्त्री प्रचण्डः प्रावोचत् सर्वकारः भ्रष्टाचारस्य विरूद्धे कठोरेण प्रस्तुतो वर्तते, भ्रष्टाचार विरोधी अभियानम् नैरन्तर्यम् च अवाप्नोति। कार्यक्रमे अर्थमन्त्री डाक्टर प्रकाश शरण महत, नुवाकोट जनपदस्य संघीय सांसद हितबहादुर तामाङ च समबोधयताम्। गतदिने एव नुवाकोट जनपदे प्रधानमन्त्री प्रचण्ड लाकुरी भञ्ज्याङ भूमिगत वृहत पेयजलायोजनाम् च उद्घाटयत्। इयम् पेयजलायोजना पञ्चकन्या ग्रामपालिकया कोट्या 50 लक्षाणाम् च रूप्यकाणाम् व्ययेन निर्मिता वर्तते। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा वदति समानुपातिक प्रणाल्याः व्यवस्थापनाय संविधानस्य संशोधनम् आवश्यकम् वर्तते। नेपाली कांग्रेस दलस्य भक्तपुर जनपद कार्य समित्या ह्य आयोजितम् भक्तपुर जनपद सम्मेलनम् उद्घाटयन् पूर्व प्रधानमन्त्री देउवा प्रत्यक्ष निर्वाचितानाम् प्रतिनिधि सभायाम् समानुपातिकानाम् च राष्ट्रिय सभायाम् नयनत्वेन व्यवस्थापनाय संविधानम् संशोधयितुम् बलम् प्रादाद। पतिः देउवा अब्रवीत् गठबन्धनस्य सर्वकारे विपुलदलम् नेपाली कांग्रेस दलम् सदपि सर्वेषाम् तुष्टीकरणत्वेन संचलनात्मिका बाध्यता वर्तते। कांग्रेस दलम् सबलम् सदैव प्रजातन्त्रम् सबलायते इति तर्कयन् सभापतिः देउवा दलस्य सबलीकरणाय जनपद पालिका वडा क्षेत्र ग्राम बसति यावत् अभियानम् सञ्चाल्य गन्तुम् नेतृन् कार्यकर्तृन् च निर्दिशत्। सम्मेलने कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला मिश्रित निर्वाचन प्रणाल्या केनापि दलेन बहुमत प्राप्तेः अवस्था न सृष्टेति हेतोः संविधानम् संशोध्य संचलनीयम् इति प्रतिपादयन् अभाषत। समानुपातिक प्रणाल्याः अपरिमार्जितायम् सत्याम् देशः संकटम् प्राप्स्यति। नेता डाक्टर कोइराला दलाभ्यन्तरे युवसन्ततेः उपस्थितेः सबलतायाः कारणेन कांग्रेस दलम् दुर्बलम् जातमिति कथनम् केवलम् प्रभादोस्तीति तर्कयन् अगदत् परम् दलम् जनता तु दूरीभूतम् वर्तते। सम्मेलने दलस्य सहमहामन्त्री बद्री पाण्डे, बागवती प्रदेशस्य सभापतिः इन्द्रवानिया, कांग्रेस दलस्य भक्तपुर जनपद कार्य समितेः सभापतिः दुर्लभ थापा च दलस्य ऐक्यबद्धतया सञ्चालनाय नेतृत्वस्तरा जनपदस्तर पार्यन्तिकैः नेतृभिः सक्रियतया प्रवर्तितव्यमिति बलम् प्रादुः। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति सर्वकारेण देशस्य हिते केन्द्रितो भूत्वा कार्यम् कर्तव्यम्। काष्ठमण्डपे ह्य आयोजितायाम् दलनिकटस्थस्य नेपाल सर्वकारीय कर्मचारी संगठनस्य द्वितीयायाम् राष्ट्रिय मेलायाम् अध्यक्ष ओली प्रधानमन्त्रिणः भारत भ्रमणे देशस्य हितस्य वस्तुगता सहमति न सम्भूतेति हिताय वस्तुगता सहमति न सम्भूतेति उदैरयत। तदवसरे अध्यक्ष ओली मन्दस्मितेन जनसेवायाम् सेवायाः कार्याणि विधातुम् कर्मचारिणः अन्वरुणत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः ह्यः पशुपतिनाथ मन्दिरस्य दर्शनम् व्यददात्। तदवसरे प्रधानमन्त्री प्रचण्डः भारत भ्रमणस्य क्रमे उज्जैन स्थितात् महाकालेश्वर ज्योतिर्लिङ्गाद् आनीतम् जलम् पशुपतिनाथोपरि आर्पयत्। तदवसरे पशुपतौ प्रधानमन्त्रिणः दाहालस्य स्वागतम्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा सुदन किराँती इत्यनेन, पशुपति क्षेत्र विकास कोषस्य सदस्य सचिवेन डाक्टर मिलन कुमार थापा भिदेन च विहितम् आसीत्। पशुपतिनाथ मन्दिरस्य दर्शनाय प्रधानमन्त्रिणा दाहालेन सहैव भारत भ्रमणस्य समूहे विद्यमानाः अर्थमन्त्री डाक्टर प्रकाश शरण महत, परराष्ट्र मन्त्री एनपी साउद, उद्योग वाणिज्य आपूर्ति मन्त्री रमेश रिजालः, ऊर्जा जलस्रोत सेचन मन्त्री शक्तिबहादुर बस्नेत च मन्दिरम् प्राप्ताः आसन्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल स्वदलम अन्यत दलम गत्वा विलयम न भवतीति भाषते। यो भक्तपुरे एकीकृत समाजवादी दलस्य प्रथम जनपदाधिवेशने ब्रुवन् असौ दलमिदम् अन्यस्मिन् दले विलयम् भवतीति भ्रमम् न धर्तुम् अनुरुणत। कार्यक्रमे कृषि पशुपक्षी विकास मन्त्री डा बेदुराम भूषाल अवोचत सर्वकारेण अस्मिन् वर्षे मलक्रयणाय आयव्ययक विवरणस्य माध्यमेन त्रिंशत अब्जानाम् वित्तम् विनियोजितम् वर्तते। संचार सूचना प्रविधि मन्त्री रेखा शर्मा एमडीएमएस नाम्न्याः चलभाषोपकरण व्यवस्थापन प्रणाल्याः क्रियान्वयनाय सर्वकारः प्रयासरतो वर्तते इत्यत अत्र कार्य सहयोक्तुम् चलभाषोपकरण व्यवसायिनः अनुरुणद्धि। नेपाल चलभाषोपकरण व्यवसायी महासंघस्य द्वितीयाम् साधारण सभाम् ह्य ललितपुरे सम्बोधयन् मन्त्री शर्मा करवञ्चनम् रोद्धुम् आनीतायाः अस्याः प्रणाल्याः क्रियान्वयनस्य सहयोक्तृणाम् व्यवसायिनाम् हिताय सर्वकारः सहयोक्तुम् सदा तत्परोऽस्तीति प्रतिबद्धताम् व्यक्तवती। मन्त्री शर्मा चलभाषोपकरणानाम् आयातस्य अपेक्षया विकृत चलभाषोपकरणानाम् पुनः प्रयोगाय सम्भारोद्योगान् राष्ट्रस्य अभ्यन्तरे संचालयितुम् व्यवसायिनः अन्वरुणत। मन्त्री शर्मा तादृशेभ्य उद्योग संचालकेभ्य व्यवसायीभ्य राज्येन नीतिगत सहयोगाय सम्पूर्ण आयव्यय विवरणस्य प्रतिशतम् एकस्य रूप्यकस्य निवेशनस्य नीतिः सर्वकारस्य स्थिति अज्ञापयत। महिला बालबालिका ज्येष्ठ नागरिक मन्त्री सुरेन्द्र राजा आचार्य भाषते वातावरणस्य संरक्षणाय समेषाम् सक्रियता आवश्यकी वर्तते। नेपाल दूरसंचार संस्थानेन मैनादेवी प्रतिष्ठानस्य सहकार्येण संचालितस्य कार्यक्रमस्य समापनस्य अवसरे यो मन्त्री आचार्य सुन्दर स्वच्छ हरित वातावरणस्य सम्पादनस्य अभियाने समेषाम् सक्रियता आवश्यकी अस्तीति अवोचत। तदवसरे मन्त्री आचार्य वातावरणीय सन्तुलनम् स्थापयितुम् वातावरणस्य संरक्षणम् प्रति सर्वान् सच्चेष्टान् विधातुञ्च सहकारेण सर्वाभिः संघ संस्थाभिः अग्रेवर्धनाय बलम् प्रादात्। राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमल सिन्हा औपचारिक भ्रमणाय ह्य चीन देशम् प्रस्थितो वर्तते। अध्यक्ष तिमल सिन्हा तिब्बत क्षेत्रस्य ल्हासा स्थाने आगामिनः आषाढ़ मासस्य प्रथम द्वितीय दिवसयोः आयोक्ष्यमाणायाम् पञ्चम चीन तिब्बत पर्यटन सांस्कृतिक प्रदर्शन्याम् सहभागितायै नवसदस्यीय प्रतिनिधिमण्डलेन सहितः चीन देशाय प्रस्थितो वर्तते। अध्यक्ष तिमल सिन्हा प्रमुखातिथिरूपेण प्रदर्शन्याम् अस्याम सहभागी जायमानो वर्तते। प्रस्तावितस्य प्रधान न्यायाधीशस्य हरिकृष्ण कार्किणो विरूद्धे एकोनत्रिंशत् निवेदनानि प्रस्तुतानि सन्ति। संसदीय श्रवण विशेष समित्या कार्किणो विरूद्धे निवेदनम् दातुम् परह्यो यावत् समयः प्रदत्तः आसीत्। यस्मिन् अवधौ एकोनत्रिंशत् निवेदनानि प्राप्तानीति संसद सचिवालयस्य प्रवक्ता एकराम गिरी अज्ञापयत। ईमेल प्रणाल्या पञ्च अवशिष्टानि च निवेदनानि व्यक्तिभिः स्वयं उपस्थाय श्रवण समितौ प्रस्तुतानीति सचिवालयो ज्ञापयति। कार्किणः विरोधिनि निवेदनानि विलोकयितुम् अद्य संसदीय श्रवण विशेष समितेः उपवेशस्य आकारणाय पूर्वकार्यम् विहितमिति समितेः सचिवालयः सूचयति। जाजरकोट जनपदे जलक्रीडायाः क्रमे निमज्य बालकद्वयम् मृतम् वर्तते। मृतकयोः भेरी नगरपालिकायाः त्रयोदशवडा क्षेत्रस्य नरबहादुर बस्नेत इत्यस्य अष्टवर्षीयः पुत्र पाण्डव बस्नेत टीकाराम बस्नेत इत्यस्य नववर्षीयः पुत्रः प्रमोद बस्नेत च स्तः। परह्यः शुक्रवासरे एतौ द्वावेव व्ययजलस्य सेचनस्य च कृते निर्मितायाम् पुष्करिणीयाम् जलक्रीडायाः क्रमे निमज्य मृताविति प्रेरणा ज्ञापितमस्ति। इति समाचारः।